समीपे नमस्कारः सिद्धान्तकौमुद्याः अजन्तस्त्रीलिङ्गप्रकरणे दशमः पाठः जून् मासस्य चतुर्दशः दिनाङ्कः मीनाक्षरसमं नायन गम्यमहेश्वरात् कृत्स्नं व्याकरणं कृत्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयन्नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. इकारान्तस्त्रीलिङ्गेषु स्मः. इकारान्तस्त्रीलिङ्गेषु प्रथमः विधः भवति तत्र ण्यन्तः शब्दः ण्यन्तः भवति. ण्यन्तः भवति चेत् तत्प्रयुक्तानि कार्याणि सन्ति. ण्यन्तः भवति इकारान्तस्त्रीलिङ्गत्वात् नदीसंज्ञाः भवति, तत्प्रयुक्तानि कार्याणि भवन्ति. शब्दः न ण्यन्तः अर्थात् औणादिकः चेत् नदीसंज्ञा तु भवति किन्तु अण्यन्तत्वात् सुलोपो न भवति. गौरीशब्दः प्रथमविधः, लक्ष्मीशब्दः द्वितीयविधः. स्त्रीशब्दः अपि ण्यन्तः किन्तु तत्र विशेषो भवति यत् अजादिषु प्रत्ययेषु परेषु विशेषेण सूत्रेण इयं विधीयते. विशेषः इदानीं धातोः इकारश्चेत् कथं प्रक्रिया किं भवति इति द्रष्टव्यं. तत्र उदाहरणत्वेन दीयते श्रीशब्दः इकारान्तः स्त्रीलिङ्गः. श्री इत्यत्र धातोः इकारः, श्री श्रयणे इति धातोः क्विप् वचि प्रचित्येन क्विप् प्रत्यये कृते प्रकृतेः दीर्घे कृते श्री इति धातुः निष्पद्यते इति प्रातिपदिकं निष्पद्यते. श्री इत्यस्मात् सुप्रत्यये कृते अण्यन्तत्वात् सुलोपो न भवति, सुलोपे असति श्रीः. धातोः इकारः यत्र यत्र धातोः इकारः भवति, इवर्णः भवति अथवा उवर्णः भवति, तत्र अचिष्णुधातुभ्रुवां युवोः इयङ् वङौ इत्यनेन इयङ् आदेशो भवति, उवङ् आदेशश्च भवति. सो वेर् एवर् अस् सून् अस् वि say that there is an ikara or an ukara belonging to a dhatu, you immediately look into either yang or yan. Okay, there are two options also. If it is a dhatu, it can either have yang by achishna dhatu bhuva or yan by eraneka asva samyoga purvasya. In this case, it has to be yang because eraneka asva samyoga purvasya cannot apply. Asanyoga purvasya. धात्ववयव संयोगपूर्वो न भवति यः इकारः इत्युच्यते. अत्र तु धात्ववयवे संयोगः अस्ति, षकाररेफयोः संयोगः. सिन्स् दर् इस् अ संयोग एरनेकाचः के नाट् अप्लै हियर्, सो दर् इस् नो यन्. इन्स्टेड् आफ् दट् दर् इस् अचिष्णुधातुभ्रुवां, दर् इस् इयन्. सो श्रीः श्रियौ श्रियः. क्वशन् इस् विल् दिस् हाव् नदीसंज्ञा. This is not Gyanta, so there is no Sulopa fine. Will it get Nadi Karyani is the question. Because this is also Ikaranta and this is Strilinga. Yustyakhyo Nadi Ityanena Nadi Samya Bhavitum Arhati. Hintu Nadi Samya Yaha Nishetha Havitmite Neyang Vang Sthana Vastri. Padatraya Masthi Sutra Na Iyang Vang Sthana Vastri Adi Chedha. इयङ्वं स्थानौ न यूस्त्र्याख्यो नदी इति प्राक्तनं सूत्रं सम्पूर्णमनुवर्तते. यूस्त्र्याख्यो नदी इयङ्वं स्थानौ न, अर्थात् यत्र इयङ् अथवा उवङ् भवितुमर्हति. स्थानं नाम इयङ् उवङोः स्थितिः ययोः, ययोः इकार ईकार ऊकारयोः इयङ् वा उवङ् वा भवितुमर्हति. तादृश इकारान्त उकारान्तपदानि नदीसंज्ञानि अथवा प्रातिपदिकानि नदीसंज्ञानि न भवन्ति. एवमङ्गोः स्थितिः ययोः तौ ईदूतौ नदीसंज्ञौ न स्तः. इफ् द प्रातिपदिका हेस् द कण्डीशन् साटिस्फैड् टु गेट् यङ् आर् उवङ् देन् इट् विल् नाट् हेव् नदीसंज्ञा एक्सेप्ट् स्त्रीशब्द. Stree Shabda, even though it gets iyang by Striyaha, it will still get Nadi Samya because it says Astri. Excepting Stree, other words which get iyang or uvang will not have Nadi Samya. सुतेन हेश्रीः हेश्री सु इति स्थते नदीसंज्ञायाः अभावेन अम्बार्थनद्यो ह्रस्वः इति ह्रस्वो न भवति देर् इस् नो ह्रस्व सो देर् इस् हेश्रीः हेश्री सु एण्ड् देर् इस् ऋत्वविसर्ग दिस् इस् द डिफरेन्स् बिट्वीन् श्री एण्ड् लक्ष्मी इन् लक्ष्मी इवन् दो देर् इस् नो सुलोप एण्ड् प्रथमा विभक्ति प्रथमैकवचने सुलोपो नास्ति लक्ष्मीः लक्ष्म्यो लक्ष्मः किन्तु सम्बुद्धिः ह्रस्वस्तु भवत्येव हे लक्ष्म्यो हे लक्ष्म्यः इत्येव रूपम् अत्र तु श्रीः श्रियो श्रियः हे श्रीः इत्येव श्रियं श्रियौ श्रियः द्वितीया विभक्तौ अपि तथैव श्री अम् इत्यस्ति अमिपूर्वः इति पूर्वरूपं बाधित्वा अतिष्णुधातुभ्रुवाम् इत्यनेन इयङ् इयङ् ओवर् रूल्स् अमिपूर्वः इट् ओवर् रूल्स् प्रथमयोः पूर्वसवर्णः इट् ओवर् रूल्स् आल् द जनरल् सूत्र सो श्रियं श्रियौ श्रियः सो पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा पर इट् इस् नाट् परत्वात् इयङ् इस् नाट् परसूत्र रैट् इयङ् इस् इन् द सिक्स्त् चाप्टर् बिफोर् पूर्वरूप एण्ड् पूर्वसवर्ण I think it is visheshavihitatvad yang because it has been told specifically for dhatu ikara we'll get this and shriya shribhyam shribhihi ityapi bhavati ye pratyaya pare kim bhavati iti prashnah shri e ityasti atrapi अत्र नितिह्रस्वश्च इति अस्ति वि आलरेडि स्टडीड् द सूत्र नितिह्रस्वश्च वि आर् आल्सो लुकिङ्ग् इट् इट् स्टडि किमुच्यते इयं स्थानौ अस्त्री इति नितिह्रस्वश्च इत्यत्रापि अनुवर्तते सो नितिह्रस्वश्च हस् टु पार्ट्स् वन् इस् दट् ह्रस्वान् ह्रस्वव्यौ इवर्णवर्णौ तदन्तं नदीसंज्ञं स्यात् विकल्पेन इति एकः भागः अपरः भागस्तु इयं स्थानम् इयङ्वङ् स्थानौ अस्त्री स्त्रीशब्दभिन्नौ इयङ्वङ् स्थानौ नित्यस्त्रीलिङ्गौ ईदूतौ सो नित्यस्त्रीलिङ्गशब्दात् ईकारान्त उकारान्तात् विच् गेट् इयङ् आर् उवङ् विल् गेट् एन् आप्षनल् नदीसंज्ञा इन् नित् दट् इस् वेन् फालोड् बै नित् प्रत्ययस् दे विल् हेव् एन् आप्षनल् नदीसंज्ञा सो वाट् पाणिनी डस् दिस् यूस्त्र्याख्यौ नदी नेयङ्वङ् स्थानावस्त्रीः denies or negates the entire nadi samya first and then he says vami iti hasvascha ami va when followed by am there is an optional nadi samya and when followed by nit pratyaya there is an optional nadi samya so what came out of the whole thing is only in sambuddhi the nadi karya is prevented nadi karya occurs in five places when we are dealing with supratyaya that is nadi karya occurs in फैव् प्लेसस् वन् इस् सम्बुद्धि सम्बुद्धौ ह्रस्वः नित्सु आडागमः आमः नुडागमः ङेः आमादेशः इति चत्वारि नदीकार्याणि भवन्ति सो फार् इफ् द दिस् हेस् इयङ् एण्ड् उवङ् सम्बुद्धौ नदीकार्यं न भवति नित्सु आडागमः विकल्पेन भवति बिकास् निधि ह्रस्वश्च इस् एन् आप्षनल् नदीसंज्ञा आमः नुडागमोपि विकल्पेन भवति बिकास् वामि विच् इस् अ नेक्स्ट् सूत्र विच् वि आर् गोयिङ्ग् टु स्टडि गिव्स् एन् आप्षनल् नदीसंज्ञा ङेः आमादेशस्तु भवति विकल्पेनैव भवति नितिह्रस्वश्च इति सूत्रेण नितिह्रस्वश्च इत्यनेन विकल्पेन नदीसंज्ञायां सत्याम् आण्नद्याः इत्यनेन आट् आगमः श्री आ ए इत्यस्ति आटश्च इत्यनेन वृद्धौ श्री ऐ इदानीम् अचिष्णुधातुभ्रुवाम् इत्यनेन इयङि श्रियै इति एकं रूपं सो वि हेव् नदीसंज्ञा द रूपा उड् बि श्रियै पक्षे अर्थात् नदीसंज्ञायाः अभावे घिसंज्ञा न भवति सो द डिफ्रेन्स् इन् मतिशब्द वाट् वि हेड् दोस् इन् वन् केस् वि हेड् नदीसंज्ञा इन् द अदर् केस् वि हेड् घिसंज्ञा मत्यै मतये नदीसंज्ञापक्षे मत्यै घिसंज्ञापक्षे मतये किन्तु अत्र नदीसंज्ञा भवति तदभावे घिसंज्ञा नास्ति किमर्थं नास्ति घिसंज्ञा शेषोघ्यसखि इत्यत्र अनदीसंज्ञौ ह्रस्वौ यौ इवर्ण उवर्णौ ह्रस्वैकारान्त उकारान्त शब्द प्रातिपदिकानामेव घिसंज्ञा अत्र घिसंज्ञा न भवति श्री ए अतिश्रधातु भ्रुवाम् इत्यनेन इयनि श्रिये श्रियै श्रिये श्रीभ्यां श्रीभ्यः इति रूपम्. एनी क्वेश्चन्स्? Yes, because that sutta does not have anything. It just needs an ajadi vibhakti. As long as it is ajadi, you have ear. In one case we have I and in another case we have A. So in both ways we have ear. Shriyai Shriye, Shribhyam, Shribhyaha, Shriyaha, Shriyaha, Shri Ngasi Athava Ngasohu, Ngasi Ngasohu, As, Shri As. आडागमे वृद्धौ कृते श्री आस्, इयङि कृते श्रियास्, ऋत्ववसर्गयोः श्रियाः. अडागमाभावे श्री अस् इत्यस्ति, अत्रैव यङादेशः श्रियस् श्रियश्रियः, श्रियाः श्रियः श्रीभ्यां श्रीभ्यः, श्रियाः श्रियः श्रियोः. श्री ओस् इति स्थिते इयङादेशे कृते श्रियोः. श्री आम् इति स्थिते actually there is no nadi samya bai nayam sthana vastri, but the next sutra says vami va ami ami pare vikalpena bhavati. Use tryakhyo nadi itena vartate nayam sthana vastri ittatah yam sthanau astri itena vartate korthah astri stri shabda bhinnau yam sthanau ami pare vikalpena nadi samyo stah यङ्वङ्स्थानौ स्त्र्याख्यौ नाम नित्यस्त्रीलिङ्गौ यु ईकार ऊकारौ आमि आम् प्रत्यये बहुवचषष्ठी बहुवचनप्रत्यये परे वा विकल्पेन नदीसंज्ञौ स्तः न तु स्त्री. स्त्रीशब्दस्य नन् आफ् दीस् अप्लैस् टु स्त्री. स्त्री हेज् अ नित्य इयङ् नित्यनदीसंज्ञा वै यु स्त्र्याख्यौ नदी. सो श्रीणां नदीसंज्ञायां सत्यां श्री आम् इति स्थिते ह्रस्वनद्यापो नट् इत्यनेन नुदागमे कृते अशाभ्यां लोटसमानपदे इत्यनेन नत्वे च कृते श्रीणाम् इति भवति. तदभावे सिन्स् दिस् इस् एन् आप्शनल् नदीसंज्ञा श्री आम् कृते अजादित्वात् अत्रापि इयं भवति इयङि कृते श्रियां श्रीणां श्रियां. सप्तम्येकवचने किं भवति? श्री नि इ इत्यस्ति. निधि ह्रस्वश्च इति विकल्पेन नदीसंज्ञा. नेरां नद्यां निभ्यः इति आमादेशः श्री आम् इति जातम्. पुनः आन्नद्याः इति आट् आटश्च इति वृद्धिः. अचिष्णुधातुभ्रुवाम् इति इयं तदा श्रियाम् इति नदीसंज्ञापक्षे रूपं. तदभावे श्री इ इति स्थिते इयङि अचिष्णुधातुभ्रुवाम् इत्यनेन इयङादेशे कृते श्री. Yeah, so you should notice that both in Shashti and Shashti Bahuvachana and Saptami Ekavachana we have this form called Shriyam. But in Shashti Bahuvachana Naditva Pakshe Shrinam iti Rupam, Tadabhave Shriyam iti Rupam. Saptami Ekavachane tu Naditva Pakshe Shriyam iti Rupam, Tadabhave Shri iti Rupam. Shriyam Shri, Shriyohu Shrishu. So Shri Shabde आदौ सुलोपो नास्ति यन्तत्वाभावात्. फर्स्ट थिंग द डिफरेंस बिटवीन श्री एंड इफ यू से गौरी और समथिंग लाइक दैट. एंड देन इन ऑल अजादि प्रत्ययस वेर एवर देर इज एन अजादि प्रत्यय यू गेट यंग बाई अचिष्ण धातु भ्रुवाम योर यंग. श्रियौ श्रियः श्रियं श्रिया सर्वत्र भवति. सम्बुद्धौ तु नदीत्वाभावात् ह्रस्वो नास्ति. There is no nadi samya. We also do not have ambarthan adhyor hasvaha. So it is he shrihi. Nitsu pratyeshu pareshu niti hasvashchayati vikalpena nadi samya bhavati tat prayuktaha aadagamopi bhavati nyeha amadeshopi bhavati. So in all these cases there is an optional nadi samya. Aami parepi vikalpena nadi samya bhavati vami iti sutrena. Yes, please. Any questions? We didn't treat it as mati. No, no. It is not like mati at all. We don't get two forms. I was saying that the difference is that there are two forms like mati shabda because there is an optional nadi samya. But in case of mati samya, sorry, in case of mati shabda, the two forms are because there is an optional nadi samya like this, which is correct. On the other hand, there is also ghi samya, but in Shri, there is no question of ghi samya because this is not rasvanta. So, that was all. Now, what was your question? Actually, the thing is, we are declining mati like ikaranta. I mean, the thing is not whether it is mati or shri, it is just nadi samya. Okay, that form is because of nadi samya, which is like Gauri or like Lakshmi, you can say whatever. Huh. Yes. Correct. Because Niti Shastrashtra gives an optional Nadi Samya. Nadi Samya itself is Vikalpa. What Vani needs is, initially he says, use Tyakhyo Nadi. Ikaranta Ukaranta Nitya Strilinga, it should be Nadi. So then Shri Shabda would also get Nadi Samya. But immediately afterwards he says, Neyang Vang Sthana Vasti. If it gets Iyang, then it does not have Nadi Samya. That is why we did not do Hraswa in Sambuddhi. Then again he says, Vami and Niti Shastrashtra. Hasvashta. In Aam and in Nyit Pratyas, it gets an optional Nadi Samya. So we have Nadi Samya, the forms go like the usual Ikaranta words, like Gauri. When there is no Nadi Samya, we just do whatever Sandhi is applicable and have the form. No, no, Ghi Samya is not there because it is not Hasva. Any other questions? Now we have another word. Again, where Ikara is derived from a dhatu. Pradhyayatiti pradhihi. The difference between Shri and Pradhi, I mean at the outset, is that Shri will get Yang because it has Sanyoga Purva. Wherever there is Sanyoga in the Dhatu, there is no Yang. But Pradhi, Dhatvayavayave Sanyoga Hanasti, Tasmadatra, Eranekacho Sanyoga Purvasya, iti Yang Bhavitum Arhati. Okay? So that is the difference. Wherever there is there is a dhatu, we have to think whether it will get yang or yan. Dhatvavayave ehe anekachaha sanyoga purvasya. Dhatvavayava sanyoga purvo nabhavati yaha ikaraha tadanto yo dhatuhu tadantasya anekachaha angasya. So there are different rules for eranekacha sanyoga purvasya. If those rules can be satisfied, it gets yan. Otherwise, it would get yang. There is a question. This is an example of Prapta Vibhasha and Aprapta Vibhasha. So this is actually Aprapta Vibhasha. I mean, we are still in the previous case where he says Vami and Niti Shastrashtra. As is it Prapta Vibhasha or Aprapta Vibhasha? So this is Aprapta Vibhasha because by Neyang Vang Sthana Vastri, the Nadi Samya was denied completely. Initially, there was Prapti and then there was Nishedha. Now, once it has been completely negated, we are saying an option by Vami and Niti Shastrashtra. So, Vami and Niti Shastrashtra would be a Prapta Vibhasha. Yes, shall we open this? Hmm. हेलो हाँ यस ओ ओके नो फॉर मती ऑल्सो इट इज अप्राप्त राइट बिकॉज मती ऑल्सो विल नॉट गेट नदी संज्ञा नदी डज नॉट हैव एनी सूत्र फॉर गेटिंग नदी संज्ञा इन केस ऑफ श्री इनिशियली इट हैड बट देन इट वॉज नेगेटेड बाई नयेगोंग स्थानावस्त्री सो फॉर बोथ इट इज अप्राप्त भाषा Any other questions? So, Gopan, do you still have any other questions? Okay. Pradhyayati iti pradhihi. So, as I said, the initial difference is will it, if this will get yen by Eran Ekacha Sanyoga Purvasya while Shri got yen. Now there is one more question, will Pradhi get Nadi Samya or not? Shri Shabdasya Vishayake Muktam Vastutaha Neyangvam Sthano Vastriyatyanena Nadi Samya Nishiddha Nanantaram Vami Utiha Srashtayatyanena Vikalpena Nadi Samya Prapta Jnatam Pradhyayati iti Pradhihi Ityasti Atra Nadi Samya Bhavativa Nava iti Prashna So, what is the basis of this question is for Nadi Samya to be there, I mean for us to consider any of these sutras, application of any of the Nadi Samya sutras, the principal condition is Sthriyakhyau. You Sthriyakhyau Nadi. Sthriyakhya means we have been telling Nitya Sthrilinga Shabdas, those Shabdas which exist only in Sthrilinga. For such words, there is Nadi Samya, there is a chance of getting Nadi Samya. Further questions later. Whether it has yang, vang or rasva or whatever will come later. The basic parameter is it has to be sthriyakhya. What is sthriyakhya is a question. I mean, we've been telling Nitya Sthrilinga because that is a siddhanta. But there are different opinions regarding that. Sthriyakhyam nama kim ityatraiva matabhedaha santi. So, yu sthriyakhyo nadi ityanena kim uchyate sthriyakhya nam. Arthata Nitya Sthrilinga shabda nam nadi samya asti ityuchyate. स्त्रियाख्यत्वम् अथवा नित्यस्त्रीलिंगत्वम् नाम किम् इत्यत्रैव मतभेदाः सन्ति नो यू हैव प्रधीः कथं विग्रहः प्रदर्शितः प्रध्यायति इति प्रधीः प्रकर्षेण ध्यायति चिन्तयति इति प्रधीः सो एनीबडी हु थिंक्स वेल प्रकर्षेण ध्यायति प्रध्यायति सः प्रधी भवितुम् अर्हति It can be a pullinga, it can be strilinga. That is, it can be a man, it can be a woman, it could also be an apumsakalinga for anything. Okay. So now, this pradhi can exist in this vigraha. Pradhyayati iti vigraha. Pradhi shabdaha, pullinga epi asti, strilinga epi asti, apumsakalinga epi asti. Tasmat, idam striyakhyam na iti dikshitadina matam. According to Dikshita, this is not striyakhya. This is not nitya strilinga. If you take shri, shri shabda is nitya strilinga. It does not exist in any other linga. Shri hi strilinga eva asti. Kintu pradhi, pradhyayati iti pradhi hi ityatratu. Pullinga epi bhavitum arhati, strilinga epi bhavitum arhati, napumsake epi bhavitum arhati. Tasmat atra nadi samyayah prasaktireva nasti iti dikshitanam matam. किन्तु प्रधी शब्दस्य तु वृत्तिकारादीनां मते लक्ष्मीवद् रूपम् वृत्तिकार वृत्ति इज एज आई टोल्ड वृत्ति इज एनी ग्रंथ और एनी थिंग विच अटेम्प्ट्स टू एक्सप्लेन द मीनिंग ऑफ पाणिनी सूत्रस् पाणिनीय सूत्राणां अर्थविवरणं यत्र क्रियते सः वृत्तिग्रन्थः इत्युच्यते सो वृत्ति देयर हैव बीन मेनी मेनी डिफरेंट वृत्तीज विच हैव बीन रिटन फॉर अष्टाध्यायी ग्रन्थायां बहूनि आल्मोस्ट् लैक् थौसण्ड्स् आफ़् वृत्तीस् हव् बीन् रिटन् ओके सो द भाष्यकार हिम्सेल्फ् मेन्शन्स् दीस् वृत्तिकार विच् मीन्स् दट् बिफोर् द भाष्य आल्सो देर् वेर् पीपल् हु हव् रिटन् वृत्ति आन् अष्टाध्यायी since the Bhashyakara himself says Vrittikara. But Patanjali does not mention by name who those Vrittikaras are. Now, as we stand today, we do not know any Vrittikaras who existed before Patanjali. Asmakam mate Vrittihi nama Atipratiddha Vrittihi adhya Kashika Vrittihi asti. Vamana Jayaditya Abhyam Virachita Kashika Vrittihi. So Vrittikara could be, when later authors like Dikshita or Nagesha refer to Vrittikara, they generally refer to Kashika Vritti. But whenever they say Vrittikara, it need not mean Kashika Vritti. It could be some other Vrittikaras. So, Vrittikara dinam mate Lakshmi Vadrupam. Ityukte Nadi Samya asti. Lakshmi Vadrupam ityukte Nadi Samya bhavati. कथम नदी समय भवितुम अर्हति प्रधि शब्दस्य इत्युक्ते पदांतरम विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वं इति स्वीकारात्. द वृत्तिकार हैज अ डिफरेंट डेफिनेशन फॉर नित्यस्त्रीत्व दैन व्हाट वी हैव बीन थिंकिंग. ओके, व्हाट हैव वी बीन थिंकिंग. नित्य स्त्रीलिंग मीन्स अ वर्ड शुड बी ओनली इन स्त्रीलिंग एंड नॉट इन एनी अदर लिंग. दट इज अवर करेंट डेफिनेशन ऑफ नित्य स्त्रीलिंग. दट इज द डेफिनेशन ऑफ दीक्षितर. ओके, दट इज वॉट दीक्षितर एक्सेप्ट. But according to some people, some scholars, that is not Nitya Strilingatva. What is Nitya Strilingatva? Padantaram vinapi Striyam Vartamanatvam. Any word which can indicate a Stri without requiring any other helping words is called Nitya Strilingatva, is what he says. For example, you have Pradhi Shabda, Pradhyayati. Okay. So Pradhyana, the that the kriya of pradhyana can refer to a stri. Okay? Even a stri can do pradhyana, or a man can. Okay? So, though it can refer to a man also, it can indeed refer to stri also. There is nothing to say that it cannot be strini. Okay? So, that is how Vrittikara considers chakhyatva. As long as you hear a word, there is nothing which says that it cannot be a strini, or which by default refers to a pullinga. Okay, so that is called Nitya Strilingatva. For example, I mean, what contrast he does is, there is this word called Pradhi, which is Pradhyayati. There is one more word called Gramani, Gramam Nayati, the leader of a Grama. Okay, so now actually if you take it theoretically, both these words can exist in all three lingas. Pradhyana can be done by pullinga, strilinga, napumsakalinga. Gramanayana can also be done by pullinga, strilinga, napumsakalinga. But he says gramanayana adina utsargikaya pundharmatvat. He says the leadership of a village is by default a man's. Okay, so unless you specify an exceptional case where a brahmani is the leader of a grama, unless you specify with this other strilinga word that it is a man, by default it is accepted as a man. Okay, so gramani is not nitya strilinga, but pradhi, that is this pradhyana, can be done. Just by hearing pradhi, you do not have that propensity to say that it is a pullinga. So this is nitya strilinga. That is Vrittikara's definition. He says there are some kriyas which are by default attributed to pullingas. Okay, so like gramanayana or khalapavana, he gives an example which we see later. Okay, so those are not nitya strilingas. There strilinga is an exception, so there has to be another word which indicates a strilinga, and in those cases it is not stryakhya. But for properties which are common to men and women, that is, which could apply equally to men, pullinga and strilinga, you don't need, or you don't feel that it is by default pullinga. So in all those cases, he says, it can be treated as nitya strilinga. Pradhi shabdasya tu vrittikara adinam mate lakshmivad rupam. What is his definition of nitya strilinga? Is this padantaram vinapi striyam vartamanatvam nitya strilinga iti svikarat. So if you take this definition, then Pradhi will get Nadisamya. Nadisamya is the kim bhavati Lakshmi vati. There is no Sulopa because it is not Nyanta. Everywhere else, the forms will be like Lakshmi. Only thing is that there are two differences which we will see later. वर्तते लिङ्गान्तर अनभिधायकत्वं तत् इति कैयटमते तु पुंवद्रूपं बट् आन् द अदर् हेण्ड् कैयट कैयट इस् वन् आफ़् द earliest commentators for Mahabhashya and Dikshitam and others follow Kayata's this. So Kayata says Lingantara Anabhidhayakatvam Tatu Nama Nityastritvam. Means what is Nityastrilingatvam? Lingantara Anabhidhayakatvam, that which does not exist in any other lingas. So any word which is only in Strilinga and does not exist in Pullinga or Napumsakalinga is Nityastrilinga, says Kayata. So when that is the case, what will happen? Prathi will not get Nadi Samya at all because it is not a Nityastrilinga word. So, So about Prathi, when we are taking the Vigraha as Pradhyayati, Nityakaradinamate Lakshmi Madrupam, it is not completely. Because Lakshmi will get Ikoyanasi, whereas Pradhi will get end by Eranekasva Sayoga Purvasya, that is there. And because of that, in Am and Shas, there will be a difference. Eranekasva Sayoga Purvasya, iti tu paratvat, ami purvaha ityetam api bhadhate, purvasavarna dirgham api bhadhate. So Pradhyam, Pradhyaha ityeva bhavati. So other than that, the general format will be like Lakshmi Shabda. As in case of Dikshitar's Mata, which is the Siddhanta, it will be Pumvat. We already dealt with Prathi Shabda and Pullinga, if you remember. So, in the forms will be like that. Which means there will be no Adagama, no Nudagama, no Nyehamadesha, etc. Nadi Karyas will not happen. There is also one more Vigraha for Prathi. Prathi can be derived in two ways. Prakrishtam Dhyayati, ityarthe kuprathyekate Prathi Shabdhayekaha. प्रकृष्टाधीहि इत्यपि भवति प्रधि प्रकृष्टाधीहि इति विग्रहे तु लक्ष्मीवत् इन् बोत् केसेस् दट् इस् इवन् वित् रेफरेन्स् टु वृत्तिकार आर् वेदर् इट् इस् वीक्षितन् इट् हेस् टु बि लक्ष्मीवत् बिकास् दिस् इस् धी इस् अ नित्यस्त्रीलिङ्गशब्द इट् डस् नाट् एक्सिस्ट् इन् पुल्लिङ्ग आर् नपुंसकलिङ्ग सो अकार्डिङ्ग् टु दीक्षितर् आल्सो आर् कैयट आल्सो दर् इस् Nadisamya. Vrittikaradinamate tu bhavatyeva. Since it gives strilinga without needing any other word. Chabdantaram vinapi striyam vartamanatam ityapi bhavati. So, anyantatva sulopo na bhavati pradhihi matadvayepi nityastrilingatva nadisamya asti. Vrittikaradinamate pi asti dikshitanamate pi nadisamya asti. So, Lakshmivat. यथा लक्ष्मीशब्दः तथा रूपाणि विशेषस्तु अमि शशि च प्रभ्यं प्रभ्यः इति विशेषः द डिफरेन्स् विल् बि इन् अम् एण्ड् शस् सो वै द डिफरेन्स् पूर्वरूपं पूर्वसवर्णतीर्थञ्च बाधित्वा इयङि प्राप्ते फस्ट् वि हेव् अचिष्णुधातुभ्रुवां बट् ओवर्रूलिङ्ग् दट् तदपि बाधित्वा एरनेकाचो संयोगपूर्वस्य सो फार् प्रधी शब्दः प्रकृष्टाधीः इति विग्रहे सर्वत्र एरनेकाचो संयोगपूर्वस्य इत्यनेन यणादेशो भवति सो सिमिलर्ली हि सेस् सो दट् इस् अबौट् प्रधी शब्द देर् आर् टु विग्रहास् इफ् इट् इस् प्रध्यायति इति प्रधीः देन् वृत्तिकारमते लक्ष्मीवद्रूपं दीक्षितमते पुंवद्रूपं पुल्लिङ्गे यथा तथा अर्थात् नदीकार्याणि न भवन्ति वृत्तिकारमते नदीकार्याणि भवन्ति दीक्षितमते नदीकार्याणि न भवन्ति प्रकृष्टाधीः इति विग्रहे तु उभयमतेपि नदीकार्याणि भवन्ति इति इदानीं सुधीशब्दः अस्ति पुनः सुधीशब्देपि द्वेधा विग्रहः भवितुम् अर्हति सुष्ठुधीः यस्याः अथवा सुष्ठुधीः यस्याः इति बहुव्रीहिसमासे सुष्ठुध्यायति इति वा सुधी शब्दः अस्ति सो अगेन् दिस् केन् बि दिस् वर्ड् सुधी इन् दीस् डिरेवेशन्स् इट् इस् एनिह सुष्ठुधीः यस्याः और् सुष्ठुध्यायति इट् केन् एक्सिस्ट् इन् आल् त्री लिङ्गास् सुष्ठुधीः यस्य सः यस्यास यस्य तत् त्रयमपि भवितुमर्हति सुष्ठुध्यायति ध्यानमपि पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे भवितुमर्हति सो दिस् इस् द सेम् केस् आफ़् द फस्ट् प्रधि वि हर्ड् सो वृत्तिकारमते श्रीवत् इन् केस् बै इन् अकार्डिङ्ग् टु वृत्तिकार अगेन् दिस् विल् हेव् नित्यस्त्रीलिङ्ग शब्दान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीलिङ्गत्वम् इत्यनेन अस्यापि नित्यस्त्रीलिङ्गत्वम् अस्ति नदीसंज्ञा अस्ति किन्तु यणादेशो न भवति डिफ्रेन्स् बिट्वीन् सुधी एण्ड् प्रधी इस् प्रधी शब्दे एरनेकाचौ संयोगपूर्वस्य इति एण् भवति सुधी शब्दे न भवति किमर्थं न भवति वै विल् सुधी शब्द नाट् गेट् एरनेकाचौ संयोगपूर्वस्य सत्यं न भूसुधियोः भूशब्दस्य सुधीशब्दस्य च यण् न भवति इति निषेधो विद्यते अदर्वैस् द कण्डीशन्स् आर् साटिस्फैड् रैट् यु हेव् एहे अनेकाचः संयोगपूर्वस्य देर् इस् इकार देर् इस् नो संयोग देर् इस् अनेकाच् एव्रिथिङ्ग् इस् देर् बट् देर् इस् अ स्पेसिफिक् निषेध विच् इस् न भूसुधियोः सो देर् इस् नो यण् विच् मीन्स् देर् इस् इयङ् अचिष्णधातुभवाम् इत्यनेन इयङ् भवति सो इफ् यु हेव् इयङ् इट् विल् बि लैक् श्री सो दिस् सुधी शब्द विच् इस् इन् आल् त्री लिङ्गास् दट् इस् सुष्ठुधीः अस्याः सुष्ठुध्यायति इन् दीस् विग्रहास् इट् विल् बि लैक् श्री इन् अकार्डिङ्ग् टु वृत्तिकार नभूसुधयोः इति निषेधात् यण् न भवति अचिष्णधातुभवाम् इति इयङ् भवति नदीत्वम् अस्ति अर्थः मतान्तरे तु पुम्बते मतान्तरे नाम कैयटमते पुल्लिङ्गवद् भवति अर्थात् नदीसंज्ञा न भवति सो एस् यु नो कैयट विल् से दट् ओन्ली स्त्रीलिङ्ग वर्ड्स् नित्यस्त्रीलिङ्ग दोस् वर्ड् विच् आर् इन् एनी अदर् लिङ्ग विल् नाट् क्वालिफै फार् नदीसंज्ञा सो देर् इस् नो नदीसंज्ञा द फार्म् विल् बि लैक् सुधी शब्द इन् पुल्लिङ्ग नदीत्वाभावात् तत्प्रयुक्तानि कार्याणि न भवन्ति सुष्ठुधीः अथवा शोभनाधीः इति विग्रहे तु श्रीवत् सो वेन् यु आर् सेयिङ्ग् सुष्ठुधीः कर्मधारयसमासे नित्यस्त्रीलिङ्गत्वम् अस्ति उभयमतेपि नित्यस्त्रीलिङ्गत्वमस्ति तेन नदी संज्ञा भवति तदा श्रीवत् रूपाणि भवन्ति ओके सो दिस् इस् अबौट् फार् प्रधी एण्ड् फार् सुधी इट् इस् द सेम् सो इन् वन् विग्रह there is no according to Dikshita in one vigraha there is no nadi samya in the other there would be nadi samya according to Rittikara whatever the vigraha there would be nadi samya gramani hi kumbhate okay so here is where he shows the difference you will get the question when Rittikara if Rittikara considers that even if the word is in other lingas it can be treated as nityastri linga so what words in this mata do not get nityastrilinga is a question which arises so he says gramani hi pumbate in both gramam nayati ityarthe gramani shabdah pullinga vad bhavati arthat nadeetvam na bhavati vrittikaramate api nadeetvam nasti kayatamate tu nastyeva vai says gramanayanasya utsargataya pum dharmataya padantaram vinapi striyam apravrutte utsargataya means by नेचर् बै डिफाल्ट् ग्रामनयनस्य पुंधर्मतया ग्रामनयन द लीडर्शिप् आफ् विलेज् इस् कन्सिडर्ड् टु बि अ पुंधर्म सो अन्लेस् यु हेव् अनदर् वर्ड् ग्रामणीः क्षत्रिया इत्यस्ति चेत् इफ् देर् इस् अ वर्ड् स्पेसिफैङ्ग् देन् यु विल् वेक् अप् टु अ फ्याक्ट् दट् इट् इस् एन् एक्सेप्शन् एण्ड् देर् इस् अ वुमन् ओके बट् अदर्वैस् इट् जनरलि रेफर्स् टु पुल्लिङ्ग देर् फोर् पदान्तरं विना स्त्रियां प्रवृत्तिः नास्ति अत्र स्त्रीलिङ्गत्वबोधनार्थं पदान्तरम् अपेक्ष्यते सो देर् फोर् हि सेस् दिस् इस् नाट् नित्यस्त्रीलिङ्ग एण्ड् देर् इस् नो नदीसंज्ञा मतद्वयेपि नित्यस्त्रीलिङ्गत्वं नास्ति अतः नदीसंज्ञाप्रयुक्तानि कार्याणि न भवन्ति एवं खलपवनादेरपि पुंधर्मम् औत्सर्गिकं बोध्यं वेन् वि गो टु ऊकारान्त विल् सि खलपू वर्ड् इस् देर् खलान् पुनाति So that also is considered to be an utsargikataya pumdharma, the property of a linga. So in that case, there will not be nadi samya. But in other ukarantas also, the same thing will repeat. So we'll see it when we go to ukarantas. Okay. So that is about ikaranta strilingas. Iti idantaha. Any questions? ओके गो टु उकारान्त उकारान्त इस् वेरि सिम्पल् धेनुर् मतिवत् सो देर् इन् उकारान्त पुल्लिङ्ग द फस्ट् सेण्टेन्स् वा शम्भुर् हरिवत् शम्भु विल् बि लैक् हरि सो हियर् इस् धेनुर् इस् लैक् मति सो इस् नो डिफ़्रेन्स् धेनु शब्द इस् एक्साक्ट्लि लैक् मति शब्द इन् इट्स् प्रक्रिया Of course, the difference is in when you do H-O-Y-A-V-A-H-A, wherever you had I, you would get AVU, or when you do N, you would get VAKARA-YAKARA. That difference is there. You cannot say DHENAYE, as you say MATAYE, but in Prakriya, in the sutras which apply, there is no difference. So, there is no difference at all. DHENAHU MATIVATU. That is the standard Ukaranta Pullinga is DHENU SHAPNA. Okay? Ukaranta Strilinga, I'm sorry. Now, there is one more Ukaranta Strilinga, Kroshtu Shabdaha. If you remember, we saw Kroshtu in Pullingas also. Ukaranta Pullingaha, Kroshtu Shabdaha. Tatya Kroshtu Shabdasya Kaha Visheshaha. Kroshtu Iti Shabdasya Kaha Visheshaha. Trijvat Kroshtu Ityanena Trijvat Bhavaha Kataha. क्रोष्टुः त्रिजन्तवद् रूपं लभते असम्बुद्धौ सर्वनामस्थाने परे विभाषा तृतीयादिषु अचि तृतीयादिषु अजादौ विभक्तौ विकल्पेन क्रोष्टुः त्रिज्वद् भवति सो देर् वेर् फार्म्स् लैक् ऋकारान्त देर् वेर् फार्म्स् लैक् उकारान्त देर् वेर् बोत् इन् सर्वनामस्थान त्रिज्वद्भाव वास् नित्य इन् अजादि विभक्ति स्टार्टिङ्ग् फ्रम् तृतीया सर्वनाम त्रिज्वद्भाव वास् विकल्प In Haladis, there was no Trijvadbhava. So, this Kroshtu was a combination of Ukaranta and Rukaranta forms in various things. But in Strilinga, no such complications. Striyamcha iti sutram. Trijvat Kroshtuhu iti anuvartate. Upasaralam. Strivachi Kroshtu shamdaha Trijantavad rupam labhate. So in Strilinga, Kroshtu will behave like Trijanta in all Vibhaktis without any Idu. There is no Sarvanamasthana Anuvritti here. So in all Vibhaktis and Vachanas, it will be like Trijanta, which means it will become Rukaranta. Kroshtu ityasti, Triyamcha ityanena Trijvadbhavesati, Kroshtru iti bhavati. Rukarantatve sampanne, kim bhavati, Runnebhyo neep. This is actually a Stree Pratyaya Vidhayaka Sutra. Stree Pratyaya Vidhayakam Sutra. Prasanga Vashat Atra Diyate. Ritu Nebhyaha. Rukarantebhyaha, Nakarantebhyaha. Neep Pratyayo Bhavati. Neep iti Stree Pratyayesha Annyatamaha. It is one of the Stree Pratyayas which will give an Ikara at the end. Striyam iti Adhikara Haste. Ridantebhyaha Antebhyashta. Striyam Neep Syat. Rukaranta and Nakaranta. In Strilinga we have Neep. So when you have Kroshtru ityasmati, Rinebhyo Neep ityanena Neep pratyaha kriyate. Iko Venasi ityanena Adeshe Kroshtri iti rupam, Strilinga. The Pratiparika itself is converted to Kroshtri. We started with Kroshtu, Triyamcha ityanena Trijvadbhave Kroshtru, Anantaram Stritva Dyodhanartham Neep pratyaya krite Kroshtri iti Pratiparikam. Kroshtri, Kroshtryau, Kroshtraha. So once it becomes Ikaranta, since it is also Nyanta, Nipratyanta, Nyanta, the forms are always like Gauri. Okay? Gauri Shabda va Drupani. So even if it is Ukaranta, all forms will be like Gauri Shabda, since it is converted to an Ikaranta. Initially it is converted to Rukaranta, and then it becomes Ikaranta. Gauri va Drupani Bhavanti. Okay? So that's it. So in Ukaranta there is nothing, there is only one possible form which is like Dhenu. Only for Kroshtu it becomes like Ikaranta. So there is no special karyas in Ukaranta Strilingas. Any questions? ीनाक्षरसमाम्नायमधिगमनमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं हर्षकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मिन् त्रयम्
वाक्यत्रयं नमस्कृत्य तदुक्तीश्वरिभाग्यस्य वैयाकरणसिद्धान्तकौमुदी वन्दिरस्यते।